एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। अर्थमन्त्री डाक्टर स्वर्णिम वाग्ले निगदति सुशासनम् सर्वकारस्य उच्च प्राथमिकतायाम् वर्तते। प्रतिनिधि सभायाम् आगामिनः आर्थिक वर्षस्य कृते निर्धारितस्य विनियोजन विधेयकस्य सिद्धान्तान् प्राथमिकताम् च आधृत्य सांसदैः उत्थापितान् प्रश्नानुत्तरयन् पूर्वेद्यो अर्थमन्त्री डाक्टर वाग्ले सुशासनम् विना सबलार्थिक वृद्धे सम्भावना न भवतीति चर्चयन् सर्वकारः प्रणाल्याः सुधारस्य माध्यमेन आर्थिक सुधारस्य मार्गे अग्रे वर्धितोऽस्तीति समस्पष्टयत्। अर्थमन्त्री डाक्टर वाग्ले सर्वकारेण अग्रेसारितया अर्थतन्त्रस्य पुनः संरचनया एकीकृत पूर्वाधार प्रवृत्तिभिः प्राथमिकताभिश्च सहस्रशः यूनां कृते वृत्त्युपार्जनानां सर्जनेन सहैव नागरिकाणां जीवनस्तरस्य सुधारं विधातुं सहयोगः प्राप्स्यते इति प्रत्यपादयत्। उपवेशे अर्थमन्त्री डाक्टर वाग्ले सर्वकारेण सामाजिक न्यायस्य आर्थिकोन्नयनेन सह योजनस्य नीति धृतास्थिति उदैरयत्। प्रतिनिधि सभाया ह्यस्तनोपवेशस्य शून्य समये सांसदैः जातीय भेदभावस्य स्पृश्यापृश्यतायाश्च अन्ताय विशेष योजना आनेयेति उक्त्वा सर्वकारस्य ध्यानाकर्षणं विहितं वर्तते। प्रतिनिधि सभायाः उपवेशस्य आकस्मिक समये शून्य समये च सांसदाः ताप्लेजुङ जनपदस्य निर्माणाधीनायाः केवल कारयान संचालन योजनायाः कार्यम् अग्रे वर्धिष्यते न वेति स्पष्टीकरणीयम्। आराष्टम् मार्ग निर्माणस्य कार्याणि यथासमयम् सम्पादनीयानि। नदीजन्य पदार्थानां वैज्ञानिकं व्यवस्थापनं विधातव्यम्। वातावरणीय प्रभावस्य मूल्यांकनं कठोरेण विधातव्यम्। कृषकेभ्यः समय एव रासायनिक मलं प्रदातव्यम् इति च उक्त्वा सर्वकारस्य ध्यानम् आकर्षयन् राष्ट्रिय सभाया ह्यस्तनोपवेशे आगामिनः आर्थिक वर्षस्य कृते निर्धारितस्य विनियोजन विधेयकस्य प्रस्तावितान् सिद्धान्तान् प्राथमिकतान् च आधृत्य विमर्शनम् सम्पन्नमस्ति। विमर्शनस्य क्रमे उत्थापितान् प्रश्नानुत्तरयन् अर्थमन्त्री डाक्टर स्वर्णिम वाग्ले समतामूलक समाजस्य निर्माणाय सर्वकारस्य नीति कार्यक्रमाः आयव्ययकम् च विनियुङ्क्ताः सन्ति भविष्यन्ति च इति स्पष्टीकृतवान्। शासकीय सुधारस्य कृते पूर्वाधारस्य निर्माणस्य णाय च सर्वकारस्य ध्यानम् केन्द्रितम् अस्ति इति चर्चयन् अर्थमन्त्री वाग्ले विपन्न वर्गाणाम् अवसरेभ्य वञ्चितानां वर्गाणाम् च उन्नयनत्वेन आगामिनः आर्थिक वर्षस्य आयव्ययकम् निर्मात्स्यमानम् अस्ति इति असूचयत्। तत्पूर्वम् उपवेशस्य शून्य समये सांसदाः हत्या लुण्ठनादि घटनानां नियन्त्रणम् कर्तुम् झञ्झावातस्य कारणेन प्राप्त क्षतेः वैद्युत प्रसारण प्रणाल्याः शीघ्रं सम्भारं विधातुम् विस्थापितानां भूम्यावासहीनानां जनानां शीघ्रं पुनस्थापनां कर्तुम् पर्याप्त विमर्शनेन विना संविधानस्य संशोधनस्य कार्यम् अग्रे न वर्धयितुम् च सर्वकारस्य ध्यानम् आकर्षयन् राष्ट्रियसभायाः अपरोपवेश सेव ज्येष्ठस्य अष्टमे दिवसे शुक्रवासरे दिवा सपादैकवादने वस्ता। राष्ट्रपतिना रामचन्द्र पौडेलेन ह्य सर्वोच्च न्यायालयस्य नवनियुक्तो न्यायाधीशः मनोज कुमार शर्मा पदगोपनीयतयोः शपथेन प्रतिज्ञापितो वर्तते। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते समारोहे राष्ट्रपतिः पौडेलः प्रधान न्यायाधीशं शर्माणं पदगोपनीयतयोः शपथम् अग्राहयत्। प्रधान न्यायाधीशस्य शपथग्रहण समारोहे उपराष्ट्रपतिः रामसाय प्रसाद यादव प्रधानमन्त्री बालेन्द्र शाह सभामुख डोल प्रसाद अरियाल राष्ट्रियसभायाः अध्यक्ष नारायण प्रसाद दाहाल उच्च पदस्थाधिकारिणश्च उपस्थिताः आसन्। नेपालस्य संविधानस्य एकोनत्रिंशद् उत्तर एकशततम धारायाः द्वितीयोपधाराया अनुसारेण सांविधानिक परिषदः परामर्शेन राष्ट्रपतिना पौडेलेन ह्य एव शर्मा प्रधान न्यायाधीशपदे नियुक्तः आसीत्। संसदीय श्रवण समित्या प्रस्तावितस्य प्रधान न्यायाधीशस्य डाक्टर मनोज कुमार शर्मणः नाम सर्वसम्मत रूपेण अनुमोदितम् आसीत्। नवनियुक्तेन प्रधान न्यायाधीशेन शर्मणा ह्य एव पदभारः गृहीतोऽस्ति। नवनियुक्तः प्रधान न्यायाधीशः डाक्टर मनोज शर्मा निगदति स्वतन्त्र न्यायपालिकायाः सम्पादनम् स्वस्य प्राथमिकतायाम् वर्तते। यः सर्वोच्च न्यायालये पदभार ग्रहणानन्तरम् संचारकर्मीभिः भाषमाणः प्रधान न्यायाधीश शर्मा स्वतन्त्रा निष्पक्षा च न्यायपालिका लोकतन्त्रस्य मेरुदण्डो भवति इति प्रावोचत्। प्रधान न्यायाधीश शर्मा न्यायपालिकायाः संस्थागत स्वतन्त्रतायाम् न्यायाधीशानाम् व्यावसायिक निष्पक्षतायाम् न्याय सम्पादन प्रक्रियायाम् च कथम् विदोऽपि हस्तक्षेपो न भविष्यति इति तदवसरे प्रतिबद्धताम् अभिव्यनक् इति समाचाराः।